इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। वस्तु सेवाकर परिषदा सारलौह लौह स्फटयातु इत्यादिभिः निर्मित दुग्ध सम्पुटेषु सामान्यतया 12% वस्तु सेवाकरस्य अनुशंसा कृतास्ति। वित्तमन्त्री निर्मला सीतारामनः ह्यः नवदिल्ल्यां वस्तु सेवाकर परिषदः 53वें उपवेशनस्य अनन्तरं वार्ताहरैः सह वार्तालापानन्तरं घोषणां कृतवती यत् अखिल भारतस्तरे जीवमितीय प्रमाणीकरणं समारभते। वित्तमन्त्री प्रोक्तवती यत् भारतीय रेलवे द्वारा यात्रिभ्यः प्रदीयमानानि अनेकानि सौविध्यानि वस्तु सेवाकर सीम्नः निर्गतानि। भारत बांग्लादेशाभ्याम् अनेकेषु सन्धिज्ञापनपत्रेषु हस्ताक्षरं जातम्। एतेषु सन्धिपत्रेषु आंकीय हरित अंश सहभागिता, समुद्र सहकारिता, स्वास्थ्य चिकित्सा, अंतरिक्ष सहभागिता, रेल मार्ग संपर्क, समुद्र विज्ञापन, आपद प्रबंधनम, मत्स्यपालनम च इति क्षेत्राणि सम्मिलितानि सन्ति। नवदिल्ली नगरे प्रधानमन्त्रिणः नरेन्द्र मोदिनः बांग्लादेश प्रधानमन्त्रिणः शेख हसीनायाश्च वार्तालापानन्तरं एतानि सन्धिपत्राणि हस्ताक्षरितानि। एकस्यां वार्ताहर विज्ञप्त्यां प्रधानमन्त्री श्रीमोदी उक्तवान् यत् बांग्लादेशः भारतस्य नेबर फर्स्ट एक्ट ईस्ट इति नीतेः आधारस्तम्भो वर्तते। सः अवदत् यत् गते एकस्मिन् वर्षे उभाभ्यां देशाभ्यां मिलित्वा जनकल्याणाय बह्व्यः महत्वपूर्णाः परियोजनाः सम्पन्नाः। राष्ट्रिय परीक्षाभिकरणेन एनटीए इत्यनेन आयोज्यमाणानां परीक्षाणां पारदर्शितया सुगमतया निष्पक्षतया सञ्चालनं सुनिश्चीकर्तुं शिक्षामन्त्रालयेन एकस्य उच्चस्तरीय समितेः निर्माणं कृतम्। भारतीयान्तरिक्षानुसन्धान संघटनस्य इसरो इत्यस्य पूर्व प्रमुखस्य के राधाकृष्णन इत्यस्य अध्यक्षतायुतायै 7-सदस्यात्मिकायै समितये परीक्षा प्रक्रियां परिष्काराय अथ च कार्यप्रणालीं समीक्षितुं दायित्वं प्रदत्तम्। एषा समितिः प्रवर्तमान प्रक्रियायाः मूल्यांकनम् अपि च अभिशंका निवारण तंत्रस्य समाकलनं करिष्यति। समितये मासद्वये एव प्रतिवेदन प्रदानाय कथितमस्ति। समितेः निर्माणानन्तरं केन्द्रीय शिक्षा मन्त्री धर्मेन्द्र प्रधानः निगदितवान् यत् छात्राणां कल्याणं उज्ज्वल भविष्यं च प्रशासनस्य सर्वोच्च प्राथमिकता भविष्यति। 18 लोकसभायाः प्रथमं सत्रं श्वः समारप्स्यति। अस्मिन् सत्रे नवनिर्वाचितानां संसत्सदस्यानां शपथग्रहणं भविष्यति। भाजपेति दलस्य वरिष्ठः सांसदः भर्तृहरि महतावः, यो हि नवलोकसभायाः प्रोटेम स्पीकर अर्थात् अस्थायी अध्यक्षरूपेण कार्यं करिष्यति, सः नवनिर्वाचितानां संसत्सदस्यानां कृते शपथग्रहणं कारयिष्यति। लोकसभाध्यक्षस्य निर्वाचनं जूनमासस्य 26 दिनांके भविष्यति। तदनु 27 दिनांके राष्ट्रपति पदासीना द्रौपदी मुर्मुः उभयोः सदनयोः संयुक्तोपवेशनं सम्बोधयिष्यति। ध्येयं वर्तते यत् राज्यसभायाः सत्रं जूनमासस्य 27 दिनांके समारप्स्यते। सत्रस्य अवसानं जुलाईमासस्य 3 दिनांके निर्धारितम् अस्ति। आईसीसी इत्येतस्यां पुरुषाणां 20-प्रति-20 विश्व चषक क्रिकेट प्रतिस्पर्धायां भारतीय दलेन एंटीगुआयां गतरात्रौ सर विवियन रिचर्ड्स क्रीडांगणे बांग्लादेशदलं 50 धावनांकैः पराजितम् इति वार्ताः।